इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। आदौ मुख्य वार्ताः। चतुर्षु राज्येषु एकस्मिन् केन्द्रशासित प्रदेशे च विधानसभा निर्वाचनस्य प्रचारः तीव्रः अभवत्। उत्तरप्रदेशस्य आरक्षकैः आईएसआई आतंकिसमूहस्य लखनऊतः चत्वारः सन्दिग्धाः गृहीताः, ये रेलस्थानकैः सह महत्वपूर्णेषु स्थानेषु विस्फोटं कर्तुं तत्पराः आसन्। भारतीयध्वजाङ्कितम् एलपीजी इत्यनेन युक्तं ग्रीन सान्वी जलयानं युद्धग्रस्तं क्षेत्रं होर्मुज जलसन्धिक्षेत्रं सुरक्षितरूपेण तीर्त्वा स्वदेशं प्रत्यागच्छति। ईरानेन संयुक्तराज्य अमेरिका देशस्य अष्टचत्वारिंशत् होरायाः शान्तिप्रस्तावम् औपचारिकतया निराकृतम्। अपि च भारतीयधनुषक्रीडकः श्यामसुन्दरस्वामी बैंकॉक नगरे विश्वधनुषक्रीडायां पैराश्रृंखलायां पुरुषाणां कम्पाउण्ड व्यक्तिगत स्पर्धायां कांस्य पदकं विजितवान्। अथ वार्ताः विस्तरेण। चतुर्षु राज्येषु एकस्मिन् केन्द्रशासित प्रदेशे च विधानसभा निर्वाचनस्य प्रचारः तीव्रः अभवत्। अप्रैलमासस्य नवमे दिनांके विधानसभा निर्वाचनात् प्राक् केरलम् राज्ये उच्चतर निर्वाचन प्रचारः दृश्यते। प्रमुख राजनैतिक दलानां प्रमुखाः राष्ट्रिय नेतारः सम्पूर्णे राज्ये प्रमुखेषु निर्वाचन क्षेत्रेषु निर्वाचनसभानां नेतृत्वं कुर्वन्ति। सोमवासरे नामांकन प्रक्रियायाः समाप्तेः अनन्तरं प्रधानमन्त्री तथा भाजपेति दलस्य वरिष्ठः नेता नरेन्द्र मोदी चेन्नई नगरे राज्य भाजपा दलस्य वरिष्ठ नेतृभिः सह चर्चाम् अकरोत्। प्रधानमन्त्री तथा भाजपेति दलस्य वरिष्ठः नेता नरेन्द्र मोदी अवदत् यत् भारतीयानां विशेषतः मध्यपूर्वस्य केरलम् राज्यस्य जनानां सुरक्षां तस्य सर्वकारस्य सर्वोच्च प्राथमिकता अस्ति। सः अद्य तिरुवल्लानगरे एनडीए निर्वाचन प्रचारस्य भागत्वेन जनसभां सम्बोधयनासीत्। श्रीमोदी अवदत् यत् गल्फ देशैः सह सर्वकारस्य दृढसम्बन्धाः एतेषु दुष्करसमये तत्र भारतीयानां रक्षणाय साहाय्यं कुर्वन्तः सन्ति। सः अग्रे अवदत् यत् केरलम् ऐतिहासिक परिवर्तनस्य कृते सज्जमस्ति तथा च एनडीए इत्यत्र जनानाम् अपरिमितः विश्वासः सम्पूर्णे राज्ये दृश्यते। महिला सशक्तिकरणम् एनडीए दलस्य प्राधान्यमस्ति तथा च महिलाः तस्य नीतिभिः सर्वाधिकं लाभम् अवाप्नुवन् इत्यपि सः अवदत्।
केन्द्र की एनडीए सरकार ही केरलम में आधुनिक इंफ्रास्ट्रक्चर और सुविधाओं पर जोर दे रही है। हम यहां नेशनल हाईवे बनाने को गति दे रहे हैं, रेलवे इंफ्रास्ट्रक्चर का विकास किया गया है, यहां रेलवे लाइनों की डबलिंग का काम भी पूरा हो गया है। कोट्टयम से अब हाई स्पीड आधुनिक वंदे भारत ट्रेन भी चलाई जा रही है।
श्री मोदी एलडीएफ तथा यूडीएफ इत्येतयोः अपि निन्दाम् अकरोत् यत् उभौ पक्षौ दीर्घकालं यावत् राज्यस्य अवहेलनं कृतवन्तः इति आरोपयन् तस्य सर्वकारस्याधीने केरलं राज्येन पूर्वकालस्य अपेक्षया पञ्चगुणितोप्यधिकानि धनानि प्राप्तानि इति उक्तवान्। तिरुवल्ला सार्वजनिक क्रीडांगणे आयोजिते कार्यक्रमे एनडीए दलस्य प्रत्याशिनः वरिष्ठनेतारः च उपस्थिताः भवन्ति। अद्य सायंकाले श्रीमोदी निर्वाचन प्रचारस्य भागत्वेन तिरुवनन्तपुरम नगरे पथ प्रदर्शने भागं भजिष्यति। कांग्रेस दलस्य वरिष्ठः नेता तथा लोकसभायां विपक्षस्य नेता राहुल गांधीवर्यः अद्य अलपुझायां उक्तवान् यत् यूडीएफ केरलम राज्ये वास्तविक परिवर्तनम् आनेतुं सज्जः अस्ति। सः एलडीएफ तथा एनडीए इत्येतयोः पक्षयोः निन्दाम् अकरोत् तथा च विधानसभा निर्वाचनानन्तरं शासकस्य एलडीएफ इत्यस्य प्रासंगिकता नष्टा भविष्यति इति उक्तवान्। अद्य सः इडुक्की एर्नाकुलम मण्डलयोः यूडीएफ निर्वाचनसभाम् अपि सम्बोधितवान्। प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चल दूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। उत्तरप्रदेशस्य आरक्षकैः आईएसआई आतंकिसमूहस्य लखनऊतः चत्वारः सन्दिग्धाः निगडिताः, ये रेलस्थानकैः सह महत्वपूर्णेषु स्थानेषु विस्फोटं कर्तुं तत्पराः आसन्। यूपी आरक्षकस्य भयोत्पादन विरोधि दलस्यानुसारं मेरठ नगरस्य निवासिनः साकिब अथ डेविड, अरबाब विकास गहलोतः, लोकेशः च चत्वारः शंकिताः गौतमबुद्ध नगरस्य निवासिनः ह्यः गृहीताः। रेल संकेत पेटिकासु जनसम्मर्द स्थानेषु गैस सिलेंडर इत्यनेन युक्तेषु वाहनेषु प्रतिष्ठितेषु आयोजन स्थलेषु च विस्फोटं कृत्वा आतंकं जनयितुं समूहस्य योजना आसीत्। तेषां प्रथमं लक्ष्यं लखनऊ रेलस्थानकम् आसीत्। क्षौरकः साकिब इत्येषः समूहस्य प्रमुखः आसीत्, तथा च सः टेलीग्राम, इंस्टाग्राम इत्यादिभिः सामाजिकान्तर्जालीय मञ्चानां माध्यमेन स्वस्य पाकिस्तानी निर्वाहकैः सह सम्पर्के आसीत्। भारतीय ध्वजाङ्कितम् एलपीजी इत्यनेन युक्तं ग्रीन सान्वी जलयानं युद्धग्रस्तक्षेत्रं हॉर्मुज जलक्षेत्रं सुरक्षितरूपेण तीर्त्वा स्वदेशं प्रत्यागच्छति। प्रशासनिक सूत्रानुसारं पश्चिम एशिया संघर्षस्य मध्ये हॉर्मुज जलसन्धि क्षेत्रं तीर्त्वा गच्छन् एषः सप्तमः भारतीय एलपीजी इत्यनेन युक्तं वाहनमस्ति। पश्चिम फारस खाड़ी प्रदेशे अधुना सप्तदशसु भारतीय ध्वजांकितेषु जलपोतेषु चतुःशताधिकाः भारतीय नाविकाः आरूढाः सन्ति। अद्यावधि खाड़ी प्रदेशात् त्रिंशताधिकैकादशाधिकशत भारतीय नाविकानां सुरक्षितं स्वदेश प्रत्यागमनं सम्पन्नम्। ईरान संयुक्त राज्य अमेरिका देशस्य अष्टचत्वारिंशत् होरायाः शान्ति प्रस्तावम् औपचारिकतया निराकृतवान्। पश्चिम एशिया प्रदेशे वर्धमानस्य संघर्षस्य मध्ये तेहरान नगरस्य दृढं भावं प्रकाशयन्त्या एषा अस्वीकृतिः क्षेत्रे अधिक अस्थिरतायाः आशंकां वर्धयति। एषः प्रस्तावः तृतीय देशस्य माध्यमेन प्रेषितः आसीत्, परञ्च तेहरान नगरं विरामम् अस्वीकृत्य स्थलीयस्तरे अभियानं तीव्रतरं कृतवान्। अस्य निराकरणस्य विषये संयुक्तराज्यामेरिकादेशात् काचित् सार्वजनिक टिप्पणी अधुना पर्यन्तं नागता। विदेशमन्त्री डॉ एस जयशंकरः अवदत् यत् वर्तमानस्थितिः केवलं परिस्थितिजन्या नास्ति, अपितु संरचनात्मिकापि अस्ति, यतः विश्वव्यवस्थायां महत्वपूर्णानि परिवर्तनानि आनयत। आईआईएम रायपुरस्य पञ्चदशे दीक्षांत समारोहे संबोधयन् डॉ जयशंकरः अवदत् यत् राष्ट्राणां सापेक्ष शक्तौ प्रभावे च परिवर्तनानि दृश्यन्ते। तेन उक्तं यत् समाजस्य काषाञ्चित् राजनैतिक व्यवस्थाः एतेषां परिवर्तनस्वरूपाणाम् अनुकूलनं कर्तुं काठिन्यम् अनुभवन्ति। मन्त्री एतस्मिन् विषये प्रतिपादितवान् यत् प्रौद्योगिकी, ऊर्जा, सैन्यक्षमताः, सम्पर्कः, संसाधनानि च इत्येतेषु क्षेत्रेषु तीव्र प्रगत्या द्रुतं प्रतिस्पर्धायुक्ते वैश्विक पर्यावरणे प्रत्याह्वानग्रहणस्य प्रवृत्तिः वर्धिता अस्ति। तेन उक्तं यत् विभिन्न क्षेत्राणाम् अधुना लाभः उपयुज्यते, केषुचित् सन्दर्भेषु तेषां शस्त्रीकरणमपि क्रियते। निर्वाचनायोगेन पश्चिम बंगाल राज्ये मतदातृणां सौलभ्यं साधयितुं षष्ठ्योत्तर षट् शताधिक चतुस्सहस्र सहायक मतदातृ केन्द्राणां निर्माणम् अनुमोदितम्, यत्र मतदातृसंख्या द्वादश शताधिका अभवत्। मतदातृणां सुलभतायै एकविंशत्यधिक त्रिशत मतदातृ केन्द्राणां स्थानान्तरणमपि आयोगेन अनुमोदितम्। पश्चिम बंगाल राज्ये सहायक मतदान केन्द्रैः सह मतदान केन्द्राणां कुलसंख्या अधुना प्रायः सार्ध पञ्चाशीति अस्ति। निर्वाचनायोगेन अस्मिन् विषये राज्यस्य मुख्य निर्वाचन अधिकारिणां कृते पत्राणि लिखितानि। उपराष्ट्रपति सीपी राधाकृष्णनवर्यः शिक्षायाः परिवर्तनशील शक्तिं विकसित भारतं प्रति यात्रां तस्य महत्वपूर्णां भूमिकां च प्रकाशितवान्। मोतिहारी नगरस्य महात्मा गांधी केन्द्रीय विश्वविद्यालये तृतीय दीक्षांत समारोहं सम्बोधयनासीत्। सः छात्रान् देशं सम्मुखी भूयमानानां समाह्वानानां निवारणार्थं स्वज्ञानस्य उपयोगाय आदिष्टवान्। भारतीय धनुष्क्रीडकः श्यामसुन्दर स्वामी बैंकॉक नगरे अद्य कांस्यपदकं विजितवान्। इति वार्ताः।